अहिंसा परमो धर्मः त्वकारेण निरूपितः मनसा कर्मणा वाचा न हन्यादल्पमप्यतः
आशादासो जगद्दासो निराशीरवनीपतिः तस्माध्याशां समुच्छिद्य स्वानन्दे रमते बुधः
ईडा कामदुघा प्रोक्ता सत्यवत्सा बलप्रदा सेवध्वं मुनयः सर्वे सर्वभावेन तामतः
ईशानः सर्वभूतानां इड्यो नान्यः कथञ्चन यदिक्षणाज्जगज्जातं यस्मिन्नेव प्रतिष्ठितम्
उच्चलं निर्मलं यस्य किं तीर्थैस्तस्य भूतले उच्चलं नामलं यस्य किं तीर्थैस्तस्य भूतले
उच्चावचेषु भूतेषु समदृष्टिर्विशिष्यते उत्कृष्टं हि समं ब्रह्म तस्माद् ब्रह्मणि सस्थितः
ऊर्ध्वमूलं मधः शाखं संसारद्रुममुन्नतं छित्त्वा सङ्गासिनातूर्णं तत्पदं याहि मुक्तिदम्
ऋजुगाय ऋषिः प्रोक्तो वक्रो वञ्चक उच्यते ऋजुरेव लभेन्मुक्तिं वक्रः स्वार्थात् प्रमुच्यते
रिक्थेच्छादित्रयं त्यक्त्वा तत्पदं याहि सुव्रत नामृतत्वस्य ह्याशास्ते वित्ते नेति श्रुतिर्जगौ
एकमेवाद्वितीयं तन्नान्यत् किञ्चित् ततः परम् एकधा बहुधा भाति नामरूपादिभेदतः
चित्तैकाग्रकृपाणेन धृत्या परमयावृतः जहि शीघ्रं महाबाहो एकागारिकपञ्चकम्
ओङ्कारधनुरादाय ह्यात्मेषु ब्रह्मणि क्षिपेत् अप्रमत्तं सदा साधो बाणवत्तन्मयो भवेत्
औषधं भगवन्नाम वैद्यः कारुणिको गुरुः संसाररोगनाशाय पथ्यं साधु समागमः
कर्मैव कारणं विद्धि जीवानां सुखदुःखयोः सार्थं बन्धाय निष्कामं मुक्तये समुदाहृतम्
एकं खं बहुधा भातम् उपाधि गुणतो यथा एकं चिन्निर्मला प्रोक्ता बहुधोपाधियोगतः
गुणमूलो हि संसारो गुणातीतं तदुच्यते निर्गुणत्वमियात्तस्मात् गकारगर्जनं त्विदम्
घटे भिन्ने घटाकाशं लीयते च महाम्बरे देहे नष्टे तथा देहि लीयते परमात्मनि
चकोरस्य यथा प्रीतिः चन्द्रेऽस्मिन् निर्मला तथा परे चेत् को न मुच्येत जन्म संसारबन्धना
छागी मे कां त्रिस्तनीं दृश्य वत्सां चित्रत्स्वाङ्गां दुःखसूमां वृद्धां प्रज्वाल्याग्निं यो हुनिधृत्सु कुण्डे स्वर्गे लोके तिष्ठते नन्तकालम्
जकारेण जपः प्रोक्तः पायते जन्मतो यतः मखश्रेष्ठः सतां श्लाघ्य स्त्रिक्रमो मुक्तिदायकः
झम्पारुसौहृदं त्यक्त्वा झर्झरीशसखो भव यत्तेजो बिन्दुमात्रेण त्रैलोक्यं जगजगायितम्
टंक प्रहार सहनेन सुरत्वमेति यश्मा जडोपि किमुनेह मनुष्य जन्मा मामलानता वशमुपेहि विधौ प्रतीपे सर्वं सहेव वह दुःख सुखादि लोके
ठकुरश्वापि पूज्यः स्यान् नीचाश्वो न कदाचन ठक्कुरं शरणं याहि त्रिशमेकं जगत्पतिम्
ओङ्कारडमरुद्घोषात् द्रावयाशुभडाकिनीं डिम्भो भूत्वाडयस्वार्य माडोमत्वं समाचर
क्षमाढालयुतो यस्तु सत्यखड्ग समन्वितः शीलवर्म समायुक्तः स केन परिभूयते
तकारो विषयाध्यासस्तन्मुक्तं तु यदा मनः उन्मनीगदिता शास्त्रे सिद्धिन्मोक्षप्रदायिनी
थश्चलोर्णो महान् वापे सर्वं ब्रह्मैव केवलम् इति स्यान्निश्चलो बोधस्तं थं न बाधते कदा
दकारेण दमः प्रोक्तो दीने दानं दया तथा दम्भादीनां परित्यागः स्वात्मदोषानुदर्शनम्
धारणाद्धर्म इत्याहुः भेदभावान्न तद्भवेत् तस्माद्भेदं परित्यज्य नित्यधर्मं समाश्रये
धर्ममूलः श्रियः प्रोक्ता धर्ममूलं तथा सुखं धर्ममूला च कीर्तिः स्यात् तस्माद्धर्मं समाचरेत्
आदिमध्यावसानेषु यत्कर्म निर्मलं श्रुतं तद्धर्म इति जानीहि ज्ञात्वाप्येवं समाचर
नर्मदा शर्मदा लोके पुरारिपददामता ये सेवन्ते नरा भक्त्या तेन यान्ति पुनर्भवम्
परार्थो हि परं पुण्यं पापं तु परपीडनं पकारगर्जनामेतां श्रुत्वा जागृहि जागृहि
परार्थे जीवनं यस्य स पुमान् सद्भिरुच्यते कीटोऽपि स्वोदरापूर्तौ यततेऽत्र न विस्मयः
फलाकांक्षा हि बन्धाय निष्कांक्षो मृतमश्नुते तस्मात् कांक्षां परित्यज्य यततां लोकसङ्ग्रहे
बलं बलवतां विष्णुर्निर्बलानां बलं हरिः स्वकुलादिबलं त्यक्त्वा हरिमेकं समाश्रयेत्
भक्तिर्गरीयसी लोके विभक्ति भयनाशिनी भुक्तिदा मुक्तिदा मोघा तिष्येत्र भवनाशिनी
ममेति बध्यते जन्तुर्न ममेति प्रमुच्यते निर्ममो निरहङ्कारः सुखमत्यन्तमश्नुते
यमी वन्द्यो यमी धन्यो मोक्षभाक्शीघ्रमेव सः यमो न वीक्ष्यते तात यमिनं त्रीशसेविनम्
रमानाथो रदो दास दुःखात्यन्तनिवर्तकः रमन्ते योगिनो यत्र स रामः किं न सेव्यते
लघिमा महिमा चैव कर्मणा भवति प्रभो ईशेन पूरितं सर्वं को लघु को गुरुर्भुवे
वासना जन्ममूलं स्यात् तन्मुक्तो मुक्त उच्यते वासनातानवाध्याशु मनोभङ्गस्ततः परम्
शङ्करं शङ्करं लोके सुखदं शरणं व्रजेत् शतीति शङ्करः प्रोक्तः शङ्करोतीति वा हरिः
षडारातिगणं हत्वा षण्मुक्तो भव सुव्रत षण्डाली सह गाह्येते षण्ढत्वं त्वां नयन्ति भोः
सत्यमेव परो धर्मः सत्यमेव परं तपः सत्यमेव परा पूजा तस्मात् सत्यं समाश्रयेत्
सत्यं ज्ञानमनन्तं यत् ब्रह्माचिन्त्यमरूपकं तत्पदार्थेन विख्यातं तत्परो भव सुव्रत
हकारो रविरित्युक्तः ठकारश्चन्द्र उच्यते तयोरैक्यं हठं विद्धि न हठात् देहपीडनम्
हरिरेव हरः साक्षात् हर एव हरिः स्वयम् अभेदे भेदमारोप्य त्वक्षयं नरकं व्रजेत्
हर्षशोकौ समो कृत्वा लाभहानि तथैव च मानामानौ स्तवं निन्दां ह्यात्मानन्दे सदा रम
रङ्गप्रणीता त्वक्षरगीता गेया ध्येया मुक्तिप्रदा नो देया सा यस्मै कस्मै सच्छिष्याय सदा देया इति श्रीदत्तपादारविन्दमिलिन्दब्रह्मचारि पाण्डुरङ्ग रङ्ग अवधूत महाराज विरचिता अक्षरगीता सम्पूर्णा।